अथ गो सूक्तम् आगावो अग्मन्नुत भद्रमक्रन् सीदन्तु गोष्ठेरणयन्त्वस्मे प्रजावते पुरुरूपा इह स्युः इन्द्राय पूर्वे वृषसो दुहानाः इन्द्रो यज्वने प्रणते च शिक्षते उपेद्दधाति न स्वं मुषायते भूयो भूयो रजिमिदस्य वर्धयन् अभिन्नेखिल्ले निदधाति देवयम् न ता न शन्ति न तपाति भस्करः न ता न शन्ति न ददाति भस्तस्करः देवागश्च याभिर्जजते ददाति च योगिताभिः स च ते गोपतिः सह न तार्पा रेणुककाटो अश्नुते न सग्स्क्रतत्रमुभयन्ति ता अभि उरुगायमभयं तस्य तानो गावो मत्यस्य विचरन्ति यज्वनः गावो भगो गाव इन्द्रो मे अच्छात् गावः सोमस्य प्रथमस्य भक्ष्यः इमाया गावः स जना स इन्द्रः इच्छामि धृधा मनसा चिदिन्द्रम् यूयं गावो मे दयथा कृशञ्चित् अश्लीलं चित्कृणथा सुप्रतीकम् भद्रं गृहं कृणथ भद्रवाचः बृहद्वो वय उच्यते सभासो प्रजावते सूयवसगृशन्तीः रुद्धा अपस्सुप्रपाणे पिबन्ति मावस्तेन ईशतमाघृषगुंसः परिवोहेते रुद्रस्य वृञ्जात् उपेदमुपपर्चनम् आसुगोषोपपृच्छताम् उपर्षभस्य रेतसे उपेन्द्र तव वीर्ये ॐ शान्तिः शान्तिः शान्तिः